सिंहकवचं वक्षे प्रह्लादेनोदितं पुरा सर्वरक्षकरं पुण्यं सर्वोपद्रवनाशनं सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकं ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितं विवृतस्यं त्रिनयनं शरदिन्दुसमाप्रभं लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिरुपाश्रितं चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितं सरोजशोभितोरस्कं रत्नकेयूरमुद्रितं तप्तकाञ्चनसङ्काशं पीतनिर्मलवाससम् इन्द्रारीसुरमौलिष्टा स्फुरन्माणिक्यदीप्तिभिः विराजितपदद्वन्द्वं शङ्खचक्रादिहेतिभिः गरुत्मता च विनया स्तूयमानं मुदान्वितम् स्वाहृत्कमलसम्भासं कृत्वा तु कवचं पतेत् नृसिंहो मे शिरः पातु लोकरक्षार्थसम्भव सर्वा गोपीस्तम्भवास फलं मे रक्षतु ध्वनिं नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचन स्मृतं मे पातु निहरि मुनिवर्यस्तुतिप्रिय नासं मे सिंहनाशस्तु मुखं लक्ष्मीमुखा प्रिय सर्वविद्यादिप पातु नृसिंहोरसनं मम वक्त्रं पात्बिन्दुवदनं सदा प्रह्लादवन्दित नृसिंह पातु मे कण्ठं स्कन्द भूभृद् अनन्तकृत् दिव्यास्त्रशोभितभुजौ नृसिंह पातु मे भुजौ करौ मे देव वरदो नृसिंह पातु सर्वतः हृदयं योगिसाध्यश्च निवासं पातु मे हरि मध्यं पातु हिरण्याक्ष पक्षपुक्षी विनारण नाभिं मे पातु मे हरि स्वनाभि ब्रह्म संस्कृतः कट्यां यस्यासौ पातु मे कटिं गुह्यं मे पातु गुह्यानामन्त्राणां गुह्यरूपदृक् गुरुमनोभव पातु जानुनी नररूपदृक् जङ्गे पातु धराभर तयौ सौनिकेशरी सुरराजप्रद पातु पदौ मे नृहरीश्वर सहस्रशीर्ष पुरुषः पातु मे सर्वशस्तनुं महोग्रपूर्वत पातु महावीराग्रजोग्नित महाविष्णुर्दक्षिणेतु महाज्वालयस्तु नैऋत पश्चिमे पातु सर्वेषो दिशि मे सर्वतोमुख नृसिंह पातु वायव्यं सोम्यं भूषणविग्रह ईशानं पातु भद्रो मे सर्वमङ्गलदायक संसारभयदं पातु त्योर्मृत्योर्निकेशरि इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् भक्तिमान्यपदे नैत्यं सर्वपापे प्रमुच्यते पुत्रवान् धनवान् लोके दीर्घायुरुपजायते यं यं कामयते कामं तं तं प्राप्नोत्य संशयं सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् भूम्यन्तरिक्षदिव्याणां ग्रहाणां विनिवारणम् कोरगसम्भूता विशापहरणं परं ब्रह्मराक्षसयक्षाणां दुरुत्सारणकारणं भुजे वातालपात्रे वा कवचं लिखितं शुभं करमूले धृतं येन सिद्धेयुः कर्म सिद्धय एव vasuramanushyeshu svam svam eva jayam labhet ekal sandhyam trisandhyam vayapatem niyato nara sarva mangala mangalyam bhaktim muktim cha vindati vatrimshati sahasrani pate sudhatmanam nrinam kavachasyasya mantrasya mantrasiddhi prajayate vanmena mantrarajena kritva bhasmabhirmantranam tilakam vinyasid yastu tasya graha vayam hare bhimaram japamanastu daktam varyapya mantrasya prasayedyo naro mantram nirsimha dhyanamachare tasya roga pranashyanti ye chasyu kukshi sambhava patalam spotayantam hatantam rupyantam tapayantam divibhuviditijam kshepayantam kshipantam kradantam roshayantam dishi dishi satatam samharantam bharantam vikshantam puranayantam karanikarashate divyasimham namami Divyasimham Namami Divyasimham Namami Divyasimham Namami Iti Shri Brahmanda Purane Praladoktam Shri Nrsimha Kavacham Sampurnam